अथ नवमोऽध्यायः श्रीभगवानुवाच। इदं तु ते गुह्यतमं प्रवक्ष्याम्मनुसूयवे ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्षसे अशुभात्। राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् प्रत्यक्षावगम धर्म्यं सुसुखं कर्तुम अव्ययम्। अश्रद्धानाः पुरुषा धर्मस्यास्य परंतप अप्राप्य मां निवर्तन्ते मृत्यु संसार वर्तमने। मया ततमिदं सर्वं जगद् अव्यक्तमूर्तिना मदिस्थानि सर्वभूतानि न चाहं ते स्ववस्थितः न च मदिस्थानि भूतानि पश्यमि योगमैश्वरम्। भूतभन्न च भूतस्थो ममात्मा भूतभावनः। यथाकाशस्थितो नित्यं वायुः सर्वत्र गोमहान् तथा सर्वाणि भूतानि मदस्थानीत्युपधारय। सर्वभूतानि कौन्तेय प्रकृतिं यान्ति ममामिकम्। कल्पक्षये पुनस्तानि कल्पादौ विश्रजाम्यहम्। प्रकृतिं स्वामवस्तभ्य विश्रजामि पुनः पुनः। भूतग्राममिमं कृत्स्नम् अवशं प्रकृतेर्वशात् न च मां तानि कर्माणि निबध्नन्ति धनञ्जय। उदासीनवदासीनं सक्तं तेषु कर्मसु। मयाध्यक्षेण प्रकृतिः सूयते सचराचरम्। हेतुनानेन कौन्तेय जगत् विपरिवर्तते। अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम्। परं भावम् अजानन्तो मम भूतं महेश्वरम्। मोघाशा मोघकर्माणो मोघज्ञानाविचेतसः। राक्षसीमासुरीं चैव प्रकृतिं मोहनीं श्रिताः। मात्मनस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः। भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम्। सततं कीर्तयन्तो मां यतन्तश्च दृढवृताः। नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते। ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते। एकत्वेन पृथक्त्वेन बहुधा विश्वतो मुखम्। अहं क्रतुरहं यज्ञः स्वधाहमहम् औषधम्। मन्त्रोऽहमहमेवाज्यम् अहम् अग्निरहम् हुतम्। पिताहमस्य जगतो माता धाता पितामह। वेद्यं पवित्रमोङ्कार ऋक्साम यजुरेव च। गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत। प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम्। तपाम्यम् अहं वर्षं निघ्राण्यामुत्सृजामि च। अमृतं चैव मृत्युश्च सदसच्चहमर्जुन। त्रैवेद्यामां सोमपाहपूत पापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते ते पुण्यमासाद्य सुरेन्द्रलोकम् अश्नान्ति दिव्यान् दिविदेव भोगान् ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति एवं त्रैधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ये अप्यन्यदेवता भक्ता यजन्ते श्रद्धान्विताः ते अपि मामेव कौन्तेय यजन्त्यवधिपूर्वकम् अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च न तु ममाभिजानन्ति तत्त्वे न ताश्च वन्ति ते यान्ति देवव्रता देवान् पितृन्यान्ति पितृव्रताः भूतान् यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति तदहं भक्तिमुपहृताम् अश्नामि प्रयतात्मनः यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् यत्तपस्यसि कौन्तेय तत्कुरुस्व मदर्पणम् शुभाशुफलैरेवं मोक्षसे कर्म बन्धनैः सन्न्यासयोगयुक्तात्मा विमुक्तो मामुपश्यसि समोहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः ये भजन्ति तु मां भक्त्या मयि तेषु चाप्यहम् अपि चेत् सुदुराचारो भजते मामनन्यभाक् साधुरेव समन्तव्यः सम्यक् व्यवसितो हि सः क्षिप्रं भवति धर्मात्मा शाश्वचान्तिं निगच्छति कौन्तेय प्रतिजानीह न मे भक्तः प्रणश्यति मां हि पार्थ व्यापाश्रित्य ये अपि स्युः पापयोनयः स्त्रियो वैश्यास्तथा शूद्रास्ते अपि यान्ति परां गतिम् किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा अनित्यमसुखं लोकम् इमं प्राप्य भजस्व माम् मन्मना भवमद्भक्तो मत्याची मां नमस्कुरु मामे वैश्यसि युक्त्वैवम् आत्मानं मत्परायणः ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे राजविद्या राजगुह्ययोगो नाम नवमोऽध्यायः।